भक्तास्त्वां पर्युपासते ये चाप्यक्षरमौ व्यक्तं देशांके योगवित्तमाः एवं सततयुक्ताये ये चाप्यक्षरमौ व्यक्तं तेषां के योगवित्तमाः श्रद्धया परयो ये त्वक्षरमनिर्देशम् अव्यक्तं पर्युपासते सर्वत्र गमचिन्तन् च कूटस्थमचलन् सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतहिते लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गत ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः शक्नोषि मयि स्थिरं अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरं अभ्यासयो कर्माणि कुर्वन् सिद्धिमवाप्स्यसि अथैतदप्यशक्तोऽसि कर्तुम् अत्योगमाश्रितः सर्व सर्वभूतानां मैत्रः करुण एव च निर्ममो निरहंकारः समदुःख सुखः यस्मान्नो द्विजते लोको लोकान्नो द्विजते चयः हर्षामर्षभयोद्वेगैः मुक्तो यः स च मे प्रियः अनपेक्षः शुचिर्दक्षः उदासीनो गतव्यथः शोचति न कांक्षति शुभाशुभ परित्यागी भक्तिमान् यः स मे प्रियः समशत्रौ च मित्रौ तथा मानापमानयोः शीतोष्ण सुख दुःखेषु समसंग विवर्जितः तिर्मौनी संतुष्टो येन केनचित् अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो श्रद्धा धाना ಮತ್ಪರ